ओम नमो भगवते वासुदेवाय। अथ चतुर्दशोऽध्यायः। सहोवाच य एष देहात्ममानिनां सत्त्वादिगुण विशेष विकल्पित कुशलाकुशल समवहार विनिर्मित विविध देहावलिभिर्वियोग संयोगाद्यनादि संसारानुभवस्य द्वारभूतेन सदिन्द्रियवर्गेण तस्मिन् दुर्गाध्ववदसुगमे ध्वन्यापतित ईश्वरस्य भगवतो विष्णोर्वशवर्तिन्या मायया जीवलोकोऽयं यथा वणिक्सार्थोऽर्थपरः स्वदेहनिष्पादितकर्मानुभवः श्मशानवदशिवतमायां संसाराटव्यां गतो नाद्यापि विफलबहुप्रतियोगे हस्तत्तापोपशमनीम् हरिगुरुचरणारविन्दमधुकरानुपदवीमवरुन्धे यस्यामुह वा एते सरिन्द्रियनामानः कर्मणा दस्यव एव ते। तद्यथा पुरुषस्य धनं यत्किञ्चिद्धर्मौपैकं बहुकृच्छ्राधिगतं साक्षात् परमपुरुषाराधनलक्षणो योऽसौ धर्मस्थं तु साम्पराय उदाहरन्ति तद्धर्म्यं धनं दर्शनस्पर्शनश्रवणास्वादनावघ्राणसङ्कल्पव्यवसाय गृहग्राम्योपभोगेन कुनाथस्याजितात्मनो यथा सार्थस्य विलुम्पन्ति। अथ च यत्र कौटुम्बिका दारापत्यादयो नाम्ना कर्मणा वृकसृगाला एवानिच्छतोऽपि कदर्यस्य कुटुम्बिन उरणकवत् संरक्ष्यमाणं विशतोऽपि हरन्ति यथा यनुवत्सरं कृष्यमाणमप्यदग्धबीजं क्षेत्रं पुनरेवावपनकाले गुल्मतृणवीरुद्भिर्गह्वरमिव भवत्येवमेव गृहाश्रमः कर्मक्षेत्रं यस्मिन्न हि कर्माण्युत्सीदन्ति यदयं कामकरण्ड एष आवसथः। तत्र गतो दंशमशकसमापसदैर्मनुजैः शलभसकुन्ततस्करमूषकादिभिरुपरुध्यमान बहिः प्राणः क्वचित् परिवर्तमानोऽस्मिन्न ध्वन्यविद्या कामकर्मभिरुपरक्तमनसानुपपन्नार्थम् नरलोकम् गन्धर्वनगरमुपपन्नमिति मिथ्यादृष्टिरनुपश्यति। तत्र च क्वचित् आतपोदकनिभान् विषयानुपधावति पानभोजनव्यवायादिव्यसनलोलुपः क्वचिच्चाशेषदोषनिषदनम् पुरीशविशेषम् तद्वर्णगुणनिर्मितमतिः सुवर्णमुपादित् सत्यग्निकामकातर इवोल्मुकपिशाचम्। अथ कदाचिन्निवासपानि यद्रविणाद्यनेकात्मोपजीवनाभिनिवेश एतस्याम् संसाराटव्यामितस्ततः परिधावति क्वचिच्च वात्यौपम्यया प्रमदयारोहमारोपितस्तत्कालरजसा रजनीभूतैवा साधुमर्यादो रजस्वलाक्षोऽपि दिग्देवता अतिरजस्वलमतिर्न विजानाति क्वचित् सकृदवगतविषयवैतथ्यः स्वयं पराभिध्यानेन विभ्रंशितस्मृतिस्तयैव मरीचितोयप्रायान्स्थाने वाभिधावति क्वचिदुलूकझिल्लीस्वन वदति परुषरभसाटोपं प्रत्यक्षं परोक्षं वा रिपुराजकुलनिर्भर्सितेनातिव्यथितकर्णमूलहृदयः स यदा दुग्धपूर्वसुकृतस्तदा कारस्करकाकतुण्डाब्द्यपुण्यद्रुमलतावीशोदपानवधुभयार्थशून्यद्रविणां जीवन्मृतान् स्वयं जीवन्म्रियमाण उपधावति एकदा सत्प्रसङ्गान्निकृतमतिर्व्युदकस्रोतः स्खलनवत् उभयतोऽपि दुःखदं पाखण्डमभियाति यदा तु परबाधयान्ध आत्मने नोपनमति तदा हि पितृपुत्र बहिस्मतः पितृपुत्रान् वास खलु भक्षयति क्वचिदासाद्य गृहं दाववत्प्रियार्थ विधुरमसुखोदर्कं शोकाग्निना दह्यमानो भृशं निर्वेदमुपगच्छति क्वचित् कालविषमित राजकुलरक्षसापहृत प्रियतमधनासुप्रमृतक इव विगतजीवलक्षण आस्ते कदाचिन्मनोरथोपगत पितृपितामहाद्य सत्सदिति स्वप्ननिर्वृत्तिलक्षणमनुभवति क्वचिद् गृहाश्रम कर्मचोदनातिभरगिरिमारुरुक्षमाणो लोकव्यसनकर्षितमनाः कण्टकशर्कराक्षेत्रम् प्रविशन्निवसीदति क्वचिच्च दुःसहेन कायाभ्यन्तरवह्निना गृहीतसारः स्वकुटुम्बाय क्रुध्यति स एव पुनर्निद्रा जगरगृहीतोऽन्धे तमसि मग्नः शून्यारण्य इव शेते नान्यत् किञ्चन वेद शव इवापविद्धः कदाचित् भग्नमानदंष्ट्रो दुर्जन दन्दशूकैरलब्धनिद्राक्षणो व्यथितहृदयेनानुक्षीयमाण विज्ञानोऽन्धकूपेम् धवत्पतति कर्हि स्म चित्काममधुलवान् विचिन्वन् यदा परदार पर द्रव्याण्यवरुन्धानो राज्ञा स्वामिभिर्वा निहतः पतत्यपारे निरये अथ च तस्मादुभयथापि हि कर्मास्मिन्नात्मनः संसारावपनमुदाहरन्ति मुक्तस्ततो यदि बन्धाद्देवदत्त उपाच्छिन्नति तस्मादपि विष्णुमित्र इत्यनवस्थितिः क्वचिच्च शीतवाताद्यनेकाधिदैविकभौतिकात्मीयानां दशानां प्रतिनिवारणे कल्पो दुरन्तचिन्तया विषण्ण आस्ते क्वचिन्मिथो व्यवहरन् यत्किञ्चिद्धनमन्येभ्यो वा काकिणिकामात्रमप्यपहरं यत्किञ्चिद्वा विद्वेषमेति वित्तसाठ्यात् अध्वन्यमुस्मिन्निम उपसर्गास्तथा सुखदुःखरागद्वेषभयाभिमानप्रमादोन्मादशोकमोहलोपमात्सर्येष्यावमानकृत्पिपासाधिव्याधिजन्मजरामरणादयः क्वापि देवमायया स्त्रिया भुजलतोपगूढः प्रस्कन्नविवेकविज्ञानो यद्विहारगृहारम्भाकुलहृदयस्तदाश्रयावसक्तसुतदुहित्रिकलत्रभाषितावलोकविचेष्टिता परितहृदय आत्मानमजितात्मापारेन्धे तमसि प्रहिणोति कदाचिदीश्वरस्य भगवतो विष्णोश्चक्रात् परमाण्वादिद्विपरार्धापवर्गकालोपलक्षणात् परिवर्तितेन वयसारं हसा हरत आब्रह्मतृणस्तम्बादीनां भूतानामनिमिषतो मिषतां मित्रस्तहृदयस्तमेवेश्वरं कालचक्रनिजायुधं साक्षात् भगवन्तं यज्ञपुरुषमनादृत्य पाखण्डदेवताः कङ्कगृद्रबकवटप्राया आर्यसमयपरिहृताः साङ्केत्येनाभिधत्ते यदा पाखण्डिभिरात्मवञ्चितैस्तैरुरुवञ्चितो ब्रह्मकुलं समावसंस्तेषां शीलमुपनयनादिश्रौतस्मार्तकर्मानुष्ठानेन भगवतो यज्ञपुरुषस्याराधनमेव तदरोचयन् शूत्रकुलं भजते निगमाचारे शुद्धितो यस्य मिथुनी भावः कुटुम्बभरणं यथा वानरजातेः तत्रापि निरवरोधः स्वैरेण विहरन्नतिकृपणबुद्धिरन्योन्यमुखनिरीक्षणादिना ग्राम्यकर्मणैव विस्मृतकालावधिः क्वचिद्रुमवदैहिकार्थेषु गृहे सुरंस्यन्यथा वानरः सुतदारवत्सलो व्यवायक्षणः एवमध्वन्यवरुन्धानो मृत्युगजभयात्तमसि गिरिकन्दरप्राये क्वचिच्छीतवाताद्यनैकदैविकभौतिकात्मीयानां दुःखानां प्रतिनिवारणे कल्पो दुरन्तविषयविषण्ण आस्ते क्वचिन्मिथो व्यवहरन् यत्किञ्चिद्धनमुपयाति वित्तसाठ्येन क्वचित् क्षीणधनः शय्यासनाशनाद्युपभोगविहीनो यावदप्रतिलब्धमनोरथोपगतादाने वसितमतिस्ततस्ततोऽवमानादीनि जनादभिलभते एवं वित्तव्यतिसङ्गविवृद्धवैरानुबन्धोऽपि पूर्ववासनया मिथ उद्वहत्यथा पवहति एतस्मिन् संसाराध्वनि नानाक्लेशोपसर्गबाधित आपन्नविपन्नो यत्र यस्तमुह वावेतरस्तत्र विसृज्य जातमुपादाय शोचन्मुह्यन् बिभ्यद्विवदन् क्रन्दन् संहृष्यन् गायन् नय्यमानः साधुवर्जितो नैवावर्ततेऽद्यापि यतारब्ध एष नरलोकसार्थो यमध्वनः पारमुपदिशन्ति यदिदं योगानुशासनं न वा एतदवरुन्धते यन्यस्तदण्डामुनय उपशमशीला उपरतात्मानः समवगच्छन्ति यदपि दिगिभजैनो यज्विनो ये वै राजर्षय किं तु परं वृथे सैरन्नस्यामेव ममेयमिति कृतवैरानुबन्धायां विसृज्य स्वयमुपसंहृताः कर्मवल्लीमवलम्ब्य तत आपदः कथञ्चिन्नरकाद् विमुक्तः पुनरप्येवं संसाराध्वनिवर्तमानो नरलोकसार्थमुपयाति एवमुपरिगतोऽपि तस्येदमुपगायन्ति आर्षभस्येह राजर्षेर्मनसापि महात्मनः नानुवर्त्मार्हति नृपो मक्षिकेव गरुत्मतः यो दुस्त्यजान् दारसुतान् सुहृद्राज्यं हृदि स्पृशः जहौ युवैव मलवदुत्तमश्लोकलालसः यो दुस्त्यजान् क्षितिसुतस्वजनार्थदारान् प्रार्थ्यां श्रियं सुरवरैः सदयावलोकाम् नैच्छन् नृपस्तदुचितं महतां मधुद्विट् सेवानुरक्तमनसामभवोऽपि फल्गुः यज्ञाय धर्मपतये विधिनैपुणाय योगाय साङ्ख्यशिरसे प्रकृतीश्वराय नारायणाय हरये नम इत्युदारम् हास्यन्मृगत्वमपि यः समुदाजहार य इदम् भागवतसभाजितावदातगुणकर्मणो राजर्षेर्भरतस्यानुचरितम् स्वस्त्ययनमायुष्यम् धन्यम् यशस्यम् स्वर्ग्यापवर्ग्यम् वानुशृणोत्याख्यास्यत्यभिनन्दति च सर्वा एवाशिष आत्मन आशास्ते न काञ्चन परत इति ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् पञ्चमस्कन्धे भरतोपाख्याने पारोक्ष्यविवरणम् नाम चतुर्दशोऽध्यायः श्रीकृष्णार्पणमस्तु नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।